गणेशाय नमः येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनि. सर्वेषां स्वागतम् अस्मिन् वर्गे. सर्वेभ्यो नमः. सूर्यकुमारी भगिनि नमस्कारः. भगिनि
नमस्ते महोदय.
नमस्कारः भगिनि. अस्तु, आरम्भं कर्तुं शक्नुमः. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र पूर्णप्रत्ययान्ताः इति. सङ्ख्याः इति विषयं पूर्वं पठितवन्तः. इदानीं तत्र प्रवर्तमानः विषयः अस्ति तत्र पूर्णप्रत्ययान्ताः. तत्र भेदः कः? तत्र सङ्ख्या इति अस्ति, अपि पूर्णप्रत्ययान्तपदम् अस्ति. तयोः मध्ये कः भेदः? सूर्यकुमारी भगिनी उदाहरणम् उपयुज्य वदति वा?
तत्र सङ्ख्या एव पूर्णप्रत्ययः. सङ्ख्ये एकः
सङ्ख्या इति तत्र एतत् कुर्मः, तत्र दश इति स्वीकुर्मः. तत्र दश इति सङ्ख्या अस्ति वा अथवा पूर्णप्रत्ययान्तपदम् अस्ति वा?
सङ्ख्या.
इदानीं तत्र पूर्णप्रत्यय इति भवति चेत् रूपं किं भवति?
दशमः.
दशमः इति भवति. समीचीनम्. अपि तत्र दश इति तत्र सङ्ख्या इति अस्ति, तत्र लिङ्गभेदः अस्ति वा? तत्र दश इति तत्र दशपुरुषाः इति अस्ति, महिलाः सन्ति चेत् तत्र किं भवति? दश इति पदस्य
दश महिलाः सन्ति.
हा, दश फलानि, दशफलानि सन्ति. किन्तु यदि पुरुषः अस्ति चेत् तत्र दश पूर्णप्रत्ययान्तम् अस्ति चेत् तत्र किं भवति? दशपुरुषः अस्ति चेत् दशमः पुरुषः.
एकपुरुषः एव.
हा, समीचीनं भगिनी. हा, तद् सः अपि भेदः अस्ति. तत्र दशपुरुषाः सन्ति, किन्तु दशमः पुरुषः एकः एव अस्ति. यद्यपि अनेकाः पुरुषाः स्युः, किन्तु दशमः पुरुषः एकः. समीचीनम्. इदानीं समीचीनं भगिनी. अपि तत्र महिलाः अनेकाः महिलाः सन्ति. इदानीं तत्र महिलाः तत्र पङ्क्तौ अस्ति स्थिताः इति चिन्तयतु.
दशमी महिला.
समीचीनं भगिनी. हा, अपि इदानीं तत्र भवती आपणं गच्छति, तत्र अनेकानि पुस्तकानि सन्ति. इदानीं तत्र उत्पीठिकायां तत्र प्रथमपुस्तकमस्ति तादृशम्. इदानीं तत्र किन्तु दशमं पुस्तकम् इति. समीचीनं भगिनि. तत्र लिङ्गभेदः अस्ति, अपि तत्र सङ्ख्या इति भिन्ना अस्ति, पूर्णप्रत्ययान्तपदमपि भिन्ना अस्ति. यतोहि सङ्ख्यया सम्बन्धः तु अस्ति, किन्तु सङ्ख्या इति एव न भवति. समीचीनं भगिनि. हा, अतः तत्र इदानीं तत्र वयं किं कुर्मः, तत्र गतवर्गे तत्र सम्भाषणं पठितवन्तः. इदानीं तत्र पुटसङ्ख्या, इदानीं तत्र एतादृशरूपं वक्तव्यमस्ति अस्माभिः. तत्र इदानीं तत्र पुटसङ्ख्या का इत्युक्ते तत्र पूर्णप्रत्ययान्तपदं वक्तव्यम्. इदानीं तत्र कस्मिन् पुटे पूर्णप्रत्ययान्तानां कोष्टकम् अस्ति?
सप्ततितः अपि
तत्र एकसप्ततितमे पुटे खलु. एकसप्ततितमे पुटे कोष्टकम् अस्ति. अस्तु, समीचीनम्. इदानीं तत्र कोष्टकम् उपयुज्य तत्र गतवर्गे अपि किञ्चित् अभ्यासं कृतवन्तः, तादृश अभ्यासम् अद्यापि तत्र कुर्मः. तत्र अहम् एतत् करोमि, तत्र तत्र एतत् एतादृश अभ्यासं कुर्मः. तत्र अहं वदामि, आङ्ग्लभाषायां वदामि, तत्र संस्कृतेन वद, संस्कृतेन वदतु. अस्तु, तर्हि तत्र गीताञ्जलि भगिनी, तत्र टेक् द थर्ड् बस् थर्ड् बस् गो बै द थर्ड् बस् थर्ड् बस् बस् इत्युक्ते किम् अस्ति? लोकयानं. हा, इदानीं तत्र
तृतीयं लोकयानम्
इति प्रथमविभक्तिरूपं. हा, इदानीं तेन गच्छतु, तेन गृहं गच्छतु. इदानीं वाक्यं किं भवति?
तृतीयेन लोकयानेन गच्छतु,
गृहं गच्छतु. हा हा, समीचीनं भगिनि. अस्तु, इदानीं रघुपतिमहोदय, किं भगिनि?
एकः प्रश्नः अस्ति, किमर्थम् इति संज्ञा पूरणप्रत्ययान्त?
तत्र तत्र प्रत्ययस्य नाम अस्ति भगिनि, तत्र तावदेव. तत्र
पूरण पूरण लैक्
तम् तम इति. हा, तत्र तम् इति न, तत्र किं, हा, तत्र तम इति, तम इति तत्र अन्यप्रत्ययः अपि अस्ति, किन्तु तत्र एतस्य प्रत्ययस्य नाम अस्ति तत्र पूर्णप्रत्ययन्. रघुपति महोदय, नाम किमर्थम् इति जानाति वा महोदय?
न महोदय, पूर्णम् इति, तस्य पूर्णम् इति तादृश इति भवति, इति पूर्ण पूर्णं भवति इत्येन इति.
हा,
पूर्ण पूर्णं भवति, तत्र गणनायाः पूर्णता भवति इति इति.
हा, प्रायशः गणनार्थं,
गणनया गणनार्थ गणनस्य अपूर्णता भवति इति. पूर्णे, तस्य पूर्णे इति, तस्य पूर्णे डट् इति एकं सूत्रमस्ति, डट् इति प्रत्यय, तत् पूर्ण इत्युक्ते गणनायाः पूर्णता भवति इति इति.
हा, प्रायशः सत्यं. हा,
प्रायः सत्य, यथा आर्डिनल् इति अस्ति खलु इङ्ग्लिश् भाषायां, आङ्ग्लभाषायां जानीमः आर्डिनल् इति किम् इति.
तदेव अस्ति, तदेव अस्ति महोदय, कार्डिनल् आर्डिनल् इति वदामः.
आमामां,
तत्र आर्डर् इति यदा क्रमशः
प्रायः
क्रमशः वदामः तत्र, अतः तत्र तत्र गणनार्थम् इति चिन्तयितुं शक्नुमः.
तादृशशब्दस्य प्रयोगं कृतवान् सूत्रे, अतः पूर्णप्रत्ययः इति.
हा,
तस्य पूर्णे डट् इति, डट् इति प्रत्ययः अस्ति सर्वत्र, आ इति एव अवशिष्यते. अतः अतः तत्र कुत्रचित् लेशं मकारः आगमः भवति, कुत्रचित् नले म भवति इति अत्र, तत्र अतः अतः पञ्चम इति आ इति अस्ति सर्वत्र,
म इति
आगमः भवति, पञ्चम इति भवति, पञ्च इति माग आगमः भवति, षष्ठ इत्यस्मिन् आगमः मकारस्य आगमः न भवति, तत्र भिन्नमस्ति, अतः तत्र न षष्ठः न भवति, अतः तत्र एव पूर्ण इति तेन एव कृतमस्ति, अतः एव.
हा, गीताञ्जलिभगिनी, तावदेव इदानीं वक्तुं शक्नुमः.
अस्तु महोदय, गणनार्थं
पूर्णता इत्युक्ते प्रायशः भगिनी, तत्र यदि एतत् कार्यं कुर्मः तदा इदानीं तस्य गणनं कर्तुं शक्नुमः इति. गणनकार्यार्थं, गणनकार्यार्थम् इदानीम् एतत् पदं पूर्णम् अस्ति, नाम इदानीं गणनं कर्तुं शक्नुमः. तत्र विविधः अस्ति भगिनि, तत्र यत् वयम् इदानीं पठामः तत्र तम इति अस्ति खलु, तत्र
न न प्रश्न पूर्णप्रत्ययविषये लैङ्गिकविषये एव अस्ति वा अन्ये उपयुज्यं शक्नोति वा
पूर्णप्रत्ययविषये एव पूर्णप्रत्ययं
संख्या
पूर्णप्रत्ययः संख्या विषये एव अस्ति
अत्र महोदय तत्र तत्र सङ्ख्या इति केवलं सङ्ख्यानां नास्ति, तत्र पाणिनिः सङ्ख्या इति संज्ञा अपि अस्ति खलु, बहु गणडतिवत् इति बहु इत्यस्य तस्यापि सङ्ख्यासंज्ञा भवति, येषां सङ्ख्यासंज्ञा अस्ति तत्र भवति इति अस्ति, अतः कति कति कतिपय बहु गणडतिवत् कति कथितः इति तादृशवत् कथितम इति तादृश भवति तेषाम् अन्यान् शब्दानामपि सङ्ख्या कृतमस्ति, एकं सूत्रमस्ति, अतः तेनैव यत्र यत्र सङ्ख्यासंज्ञा अस्ति तत्रापि भवति इति, तत्र सर्वत्र न भवति, केचन अस्ति तत्र मास कति तादृश
सम्बन्ध तत्र गणनम् इति किमपि तत्र सङ्ख्या सम्बद्ध विषयं किमपि अस्ति चेत् तत्र एतस्य पूर्णपत्र भवितुमर्हति तत्र किं भगिनि इति अस्ति, किन्तु इदानीं विषयान्तरम् अभवत् तत्र पूर्णप्रत्ययानां रूपाणां अतः तत्र अस्तु इदानीं लक्ष्मी भगिनी नमस्कारः भगिनी भगिनी इदानीं तत्र एकसप्ततितमे पुटे कोष्टकम् अस्ति तम् उपयुज्य तत्र पूर्णप्रत्ययः इति विषयः अस्तु रघुपतिमहोदय तत्र गिव् द बुक् टु द फोर्थ् बाय्
इति चतुर्थः इति चतुर्थः इति भवति चतुर्थः अतः चतुर्थाय बालकाय पुस्तकं देहि पुस्तकं ददातु
इति समीचीनम् अस्तु सूर्यकुमारी भगिनी इदानीं तत्र टेक् दि तत्र किं टेक् दि 25th बुक्
25th
समीचीनं भगिनि अस्तु लक्ष्मी भगिनी इदानीं तत्र किं भगिनि
पुल्लिङ्गे एव महोदय
पुस्तकम् इति नपुंसकलिङ्गं खलु तमं स्वीकरोतु पञ्चविंशतितमं पुस्तकं स्वीकरोतु लक्ष्मी भगिनी इदानीं तत्र द फिफ्त् गर्ल् इस् काल्ड् राधा द फिफ्त् गर्ल्स् नेम् इस्
राधा
पुटसङ्ख्या किमपि नास्ति अहमेव वाक्यं ददामि गर्ल्स् नेम् इस् राधा
राधा
इदानीं फिफ्त् गर्ल् इति कथं वदामः संस्कृतभाषायां पञ्चमी बालिका इदानीं तस्याः नाम
तस्याः नाम राधा
अस्ति इदानीं तत्र सर्वं मिलित्वा
पञ्चम्याः बालिकायाः नाम राधा
राधा अस्ति राधा अस्ति समीचीनं इदानीं तत्र एतदपि गतवर्गे कृतवन्तः तत्र पश्यामः तत्र अनुक्रमणिका अस्ति तत्र गीतासोपने पुस्तके आदौ तत्र प्रथमाध्यायात् पूर्वं तत्र अनुक्रमणिका अस्ति खलु तत्र टेबल् आफ् कण्टेण्ट्स् इति वदामः तत् अस्ति खलु पुस्तके तद् दृष्ट्वा प्रथम अध्यायः कुतः आरभ्यते अपि तत्र तत्र पर्यन्तं तत्र यावत्पर्यन्तम् अस्ति सः अध्यायः इति इदानीं वदामः अस्तु तर्हि तत्र रघुपतिमहोदय प्रथमाध्यायः
प्रथमाध्याय प्रथमपुटे अस्ति
हा प्रथमपुटे अस्ति हा इदानीं तत्र प्रथम कुतः
आरभ्य
यावत् पर्यन्तम्
आमाम् अस्तु प्रथमात् पुटात् आरभ्य सप्तम
तत्र यावत् इति अस्ति चेत् तत्र द्वितीयविभक्ति तावत् पर्यन्तम् इति अथवा यावत्
प्रथमं प्रथमपुटं यावत् अथवा प्रथमपुटात् आरभ्य वा
प्रथमपुट आरभ्य
प्रथमात् अथवा प्रथमात् पुटात् आरभ्य
आरभ्य
सप्तमपुटं यावत् अथवा सप्तमपुटपर्यन्तं
किं भगिनि वाक्यं वक्तुम् इच्छति वा न मया न श्रुतं भगिनि
प्रथमाय
वाक्यं किम् अस्ति भगिनि
प्रथमाय
आरभ्य इति पञ्चमी विभक्ति भवति
आरभ्य पञ्चमी विभक्ति प्रथमाय इति न भवति प्रथमतः एतदेव
प्रथमात् पुटात् आरभ्य
सप्तमं पुटं पर्यन्तम् इति तत्र पर्यन्तमिति तत्रापि द्वितीयविभक्ति अस्तु इदानीं गीताञ्जलि भगिनी इदानीं द्वितीय अध्यायः कुतः आरभ्य अपि किं पर्यन्तम् द्वितीयाध्यायः अथवा द्वितीयपाठः
किं करोमि महोदय
द्वितीयपाठः तत्र अनुक्रमणिका अस्ति खलु भगिनि गीतासोपन द्वितीयभागस्य अनुक्रमणिका टेबल् आफ् कण्टेण्ट्स् अस्ति खलु
ओ अस्तु अस्तु अनुक्रमणिका द्वितीयपाठः अस्तु
कस्मात् पुटात् आरभ्य
अस्तु अस्तु अष्टमात् पुटात् आरभ्य द्वादश पुटं पर्यन्तं
द्वितीयपाठः अस्ति अस्ति समीचीनं हा तादृशम् अस्तु इदानीं सूर्यकुमारी भगिनी इदानीं तृतीयपाठः
तृतीयपाठः त्रयोदशात् आरभ्य
त्रयोदशात् पुटात्
आरभ्य सप्तदशं पुटं पर्यन्तम् अस्ति
अस्तु अग्रे लक्ष्मी भगिनी
चतुर्थः अध्यायः अष्टमदशात् पुटात् आरभ्य अष्टादशात् पुटात् आरभ्य
चतुर्विंशतितमपुटं पर्यन्तं
चतुर्विंशतितमं पुटं पर्यन्तम्
अस्ति अस्ति समीचीनम् अस्तु एतदेव पुनरेकवारं कुर्मः अस्तु रघुपतिमहोदय अग्रे इदानीं तत्र महोदय तत्र किं कुर्मः तत्र अग्रिमे पुटे पश्यामः वा तत्र तत्र अष्टादश अध्यायः पाठः
अष्टादश एकवारं महोदय अष्टादश कुत्र अस्ति
अग्रिमे पुटे
अष्टादश संस्कृते अस्तु अस्तु
षोडशाधिकशततमं
पुटमस्ति षोडश अथवा
षोडशाधिक इति शतम् इति
षोडशाधिक षोडशोत्तर एकशततमात् पुटात् आरभ्य एकशततमं पुटं यावत् यावत् संस्कृति इति अभ्यासः वर्तते
तत्र अष्टादश अभ्यासः वर्तते समीचीनं महोदय केवलं अभ्यासार्थं नो चेत् अस्तु गीताञ्जलि भगिनी इदानीं तत्र नवदश पाठः कुतः आरभ्य
व्यक्ताहङ्कारेण भाररहितेन भूयते इति अध्यायः
इति नव तत्र इति किं नवदश अध्यायः नवदश अध्यायः
नवदशः अध्यायः
तत्र वयं जानीमः तत्र एकादश तः तत्र एकादशः इति तत्र एकादशतम इति नास्ति एकादशः एव अस्ति अतः इदानीं तत्र नवदश अध्यायः कस्मात् पुटात् आरभ्य
नवदशतमं
न तत्र तम इति नास्ति नवदशः इति एव अस्ति
ओ नवदश दशः अपि नास्ति
दश केवलं दश अस्ति चेत् तत्र दशमः तत्र सप्तमः अष्टमः नवमः दशमः किन्तु एकादशः तत्र एकादशी इति अस्ति खलु भगिनि तिथिः तत्र एकादशतमी तिथिः नास्ति एकादशी तिथिः एव अस्ति
खलु तिथि तु स्त्रीलिङ्गं पदं
किन्तु तत्र तमी इति नास्ति इति वक्तुम् इच्छामि तावदेव एकादशी इति एव तिथिः अस्ति न तु एकादशतमी तिथिः इति नास्ति अतः तत्र एकादश आरभ्य नवदशपर्यन्तं तत्र तम इति नास्ति एकादशः द्वादशः त्रयोदशः इति एव रूपम् अस्ति
अस्तु 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 द्वादशः अपि च इत्युक्ते विसर्ग अन्ते आयाति
सत्यं द्वादशः
तदनन्तरं विंशतितमं
विंशतितमः इति तादृशम् अस्ति इदानीं तत्र नवदश पाठः
गतवर्गे तु वयं चर्चितवन्तः विस्मरामि महोदय
चिन्ता मास्तु भगिनि अभ्यासार्थमेव अतः तत्र नो चेत् किमर्थम् एतत् कुर्मः खलु अभ्यासार्थमेव अतः इदानीं तत्र नवदश पाठः
विस्मरामः नवदश अध्यायः अष्टविंशत्यधिक
त्यधिक अथवा उत्तर अष्टविंशत्यधिक शततमात्
पुटात् आरभ्य त्रयोत्रिंशताधिकशततमं पुटं पर्यन्तं
तत्र त्रयस्त्रिंशत् त्रयो इति उक्तवती किन्तु तत्र त्रयस्त्रिंशत्
त्रयस्त्रिंशत्ताधिक
शततमपुटं
पुटं
यावत् तत्त्वपर्यन्तं यावत् वर्तते
वर्तते
महोदय अत्र अत्र कुत्र इत्थलेषु अत्र द्वादश अत्र आत्वम् अपि च अष्टाविंशति अत्र अष्टात्रिंशत् अत्र आत्वम् अस्ति द्वात्रिंशत्
द्वाविंशति सत्यं महोदय सत्यं
आत्मं कुत्रचित्
सत्यं महोदय तत्र द्वाविंशतिः अपि
अष्टाविंशतिः
अष्टाविंशतिः अष्टात्रिंशत् तदनन्तरम् अष्टचत्वारिंशत् एव सत्यं महोदय तत्र चत्वारिंशत् पर्यन्तं तत्र किञ्चित् भेदः अस्ति कश्चित् भेदः अस्ति
आमां
हा सत्यं किन्तु अद्य तत्र
रमजनकः अस्ति
सत्यं सत्यं महोदय किन्तु अद्य यां सङ्ख्याम् उक्तवन्तः तत्र तु सा सङ्ख्या नासीत् खलु तत्र तादृशः
न सा उक्तवती अष्टविंशति इति उक्तवती अष्टाविंशति अधिक
अष्टाविंशति
अधिक
अष्टाविंशति सत्यं धन्यवादः महोदय
अभ्यासाय
सत्यं 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 अष्टाविंशतिः अष्टाविंशति अधिक
एकशततमात् पुटात्
तत्र त्रयस्त्रिंशत् अधिकशततमं पुटं यावत् तत्र नवदशः पाठः वर्तते इति हा सत्यं हा अस्तु क्षम्यतां गीताञ्जलि भगिनी अहमपि विस्मृतवान् तत्र अष्टाविंशतिः इति
अष्टाविंशतिः
इति अस्ति विंशत्यधिकात् न विंशत्यधिकशततमात् पुटात् सप्त नास्ति भगिनि तत्र नवदश अभ्यासः तु नवदश पाठः तु तत्र अष्टाविंशति अधिकशततमात् पुटात् एव आरभ्य अस्ति हा अस्तु इदानीं भगिनी
संस्कृतभाषायां बहु दीर्घं जाता बहु दीर्घः जातः सर्वे सङ्ख्या
इति किन्तु भगिनि तत्र यदि भवती चिन्तयति तत्र छ इति एव नास्ति किन्तु आङ्ग्लभाषायामेव तादृशरूपमेव अस्ति खलु तत्र 128 इति एव अस्ति
128 अपि समीचीनं किन्तु संस्कृतभाषायां तत् शार्ट्कट् नास्ति न
शार्ट्कट् अस्ति इत्युक्ते तत्र अधिक इति मध्ये भवति तावदेव
शतं
तु 100 अस्ति
128
इत्युक्ते हा तत् अस्तु 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 तत्र 100 इति 100 इति न वदामः इति वा हा सत्यं
सत्यं संस्कृतमस्ति संस्कृतमस्ति अतः तत्र
किन्तु
भ्रमः न भवति
किन्तु भगिनि तत्र आङ्ग्लभाषायां सारल्यम् अस्ति अस्मिन् विषये सत्यं किन्तु केवलं संस्कृतभाषे तत्र काठिन्यम् इति न तत्र यदि फ्रेञ्च् भाषां पश्यति तत्र अपि तत्र 80 इति कथं ते वदन्ति इत्युक्ते तत्र 4x20 इति अपि तत्र 99 किं भवति तत्र 4x20+19 इति नवनवति इति सरलमस्ति
महोदय पर्स्पेक्टिव् कृते धन्यवादः
न भगिनि किन्तु एतत् तत्र ऐतिहासिकविषयः अस्ति खलु भगिनि तत्र सङ्ख्याः तत्र तेषां तत्र तासां प्रयोगः आसीत् अतः तत्र कियत् प्रयोगः तत्र शतपर्यन्तं पर्याप्तम् अस्तु तद् ताः सङ्ख्याः उपयुज्य सर्वं कार्यं कर्तुं शक्नुमः खलु पूर्वं तत्र कति धेनवः सन्ति कति अजाः सन्ति केवलं तत्र किं तत्र यदि युद्धं किमपि अस्ति अथवा सेनाविषये किं सेनायाः विषये अस्ति चेत् तत्र कति सहस्र अश्वाः गजाः सन्ति इति एव तत्र सहस्रम् इति पर्याप्तमासीत् हा किन्तु इदानीं तत्र किं वयं सहस्रं शतं सर्वं ज्ञातुं शक्नुमः अतः तत्र क्लेशः
किञ्चित् क्लेशः किन्तु
अभ्यासार्थं तावदेव तावदेव तत्र यदि एतादृश अभ्यासं कुर्मः तत्र मनसि किञ्चित् स्थापितं भवति अग्रे यदि किमपि पठामः तस्मिन् समये तत्र क्लेशः न भवति अस्तु अस्तु एतादृशम् अभ्यासं मया कृतम् अतः अहं जानामि तत्र एतद् रूपं भवति इति तावदेव
अद्य भवतः
हा अतः केवलं तत्र एकमासीत् विना शतम् इदानीम् एकवारं शतं शतेन सह धन्यवादः अस्तु सूर्यकुमारी भगिनी अग्रे इदानीं तत्र विंशति पाठः किन्तु इदानीं तत्र किं भवति विंशति नवदश पाठः तस्य नवदश पाठः यः अस्ति तस्मात् परः पाठः कः नवदश पाठः नवदशात् परः पाठः कः
त्रिंशति
विंशतितमः पाठः विंशः अपि किन्तु महोदय मास्तु मास्तु तत्र गतवर्गे सत्यं सत्यं अस्तु 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 विंशः पाठः अस्तु विंशः पाठः अस्ति इदानीं तत्र विंशः पाठः कस्मात् पुटात् आरभ्य
चत्वारित्रिंशदधिक एक
तत्र किं किं भगिनि चत्वारिंशत् नास्ति तत्र चतुस्त्रिंशत्
अधिक शततमात्
पुटात्
आरभ्य एक चत्वारिंशत् चत्वारिंशत् शततमपर्यन्तं
एकचत्वारिंशत् अधिकशततमं पुटं पर्यन्तम्
अस्ति
हा इदानीं पूर्णवाक्यम् एकवारं वदतु अतः एकवारमेव करणीयम्
विंशतितमः पाठः
चतुस्त्रिंशत् पूर्णवाक्यं वदतु भगिनि चतुस्त्रिंशत्
चतुस्त्रिंशत्
अधिक
आरभ्य एक
चत्वारिंशदधिकशततमं पर्यन्तम्
अस्ति
अस्ति हा समीचीनम् अस्तु धन्यवादः अस्तु
अत्र चतुरेव आसीत् तत्र सन्धि भवती सन्धि पठितवती खलु सन्धिवर्गे अस्ति खलु रकारस्य विसर्गः भवति अनन्तरं सकारः भवति तकारः अस्ति खलु अतः चतुर्विंशति तत्र न भवति अत्र चतुर् इत्युक्ते भवति
तत्र चत्वारिंशत् अस्तु भगिनि लक्ष्मी भगिनी अग्रे भवती एव वदतु भगिनि
अत्र संशयः अस्ति एकचत्वारिंशत् अधिक शततमपुटं पर्यन्तम् इति वा
किं किं किं
पूर्वतन सा भगिनी उक्तवती खलु
केवलं तत्र
एकचत्वारिंशत्
एकचत्वारिंशत् अधिक शततम शततमपर्यन्तं अन्यः एकः संशयः अस्ति विंशः इति अस्ति विंशः पाठः स्त्रीलिङ्गे स्त्रीलिङ्गे विंशि कारिका इति भवति वा
विंशि हा विंशि महिला विंशि कारिका सत्यं भगिनि विंशि माला नाम तत्र विंशतितमः इति अस्ति विंशतितमी इति अर्थे विंशि
अपि च महोदय विभक्तिरूपाणि इत्युक्ते विंशे
तत्र विंशि इति तु नदी पद नदीवत्
शः अस्ति रामवत्
किं भगिनि
विंशः पुंलिङ्गे राम
तत्र अकारान्त देवशब्दवत्
देववत् अस्तु
हा पुल्लिङ्गे देववत् विंशः स्त्रीलिङ्गे नदीवत् विंशी तत्र विंशतितमी अपि तत्र नदीवत् एव
विंशः प्रयोगः केवलं विंशतिः
विंशः तत्र रघुपतिमहोदय
अत्रैव
उक्तवान् गतवर्गे
त्रिंशः
त्रिंशः
चत्वारिंशः पञ्चाशतः
न पञ्चाशत्
अनन्तरनाति षष्टितमः
चत्वारिंशः
पञ्चाशः पर्यन्तं तदनन्तरं तत्र किं तत्र षष्टितमः
70-80 अत्र नास्ति अत्र तमतम एव भवति तेषां
केवलं 20-30-40-50
पञ्चाशतः नास्ति वा
पञ्च तदस्ति असङ्ख्यायामे नास्ति
अत्र पञ्चाशतः इति नास्ति तत्र पञ्चाशतः इति नास्ति पञ्चाशः इति अस्ति तत्र तत्र यथा तत्र विंशतः इति नास्ति विंशः तादृशं विंशः त्रिंशः चत्वारिंशः पञ्चाशः
पञ्चाशः
हा इति रूपं
धन्यवादः महोदय
हा किन्तु अहं चिन्तितवान् तत्र सप्त तत्र सप्ततः इति अपि भवति इति किन्तु गतवर्गे रघुपतिमहोदय उक्तवान् अतः तत्र इदानीं जानामि तत्र पञ्चाशः पर्यन्तमेव तत्र भवति इति हा अस्तु लक्ष्मी भगिनी इदानीं भवती एव तत्र इदानीं तत्र 21st
एकविंशतितमः पाठः षट् चत्वारिंशत् अधिक दश द्वाचत्वारिंशदधिक
तत्र द्वि अस्ति भगिनि तत्र चत्वारिंशत् पर्यन्तं तत्र द्वि अस्ति द्विचत्वारिंशत्
द्विचत्वारिंशदधिकशतमात् आरभ्य षट् चत्वारिंशत् अधिक पञ्चचत्वारिंशत् अधिक शततमं पुटं पर्यन्तम् अस्ति
अस्ति इति अस्तु अस्तु दीर्घाभ्यासः अभवत्
महोदय अन्यद् विशेषमस्ति द्विचत्वारिंशत् ततः आरभ्य तत्र विकल्पेन द्वा अपि भवति
इति वा महोदय अस्तु अस्तु
द्वाचत्वारिंशत् द्विचत्वारिंशत् अथवा द्वात्रिंशत् अथवा सोरि द्विपञ्चाशत् द्वापञ्चाशत् द्विषष्टिः द्वाषष्टिः
विकल्पेन वा अस्तु
विकल्पेन अस्ति द्विसप्ततिः द्वासप्ततिः इति अस्ति परन्तु द्वाद्वशीतिः इति तत्र नास्ति अपि च एतन् द्विनवतिः द्वानवतिः अत्र विकल्पेन अस्ति तत्र चत्वारिंशत् आरभ्य इति अस्ति केचन अस्माकं तु संस्कृतभारत्यां तत् द्वि एव वदन्ति नास्ति तत्र विकल्पेन अस्ति अत्र
अतः सारल्यार्थं तत्र
सारल्यार्थम् आमां
द्वि इति स्थापितं किन्तु वस्तुतः तादृश नास्ति अस्तु
सरलतः न कन्फ्यूजन् भवति महोदय
विकल्पः अस्ति चेत् तत्र मनसि सम्यक्तया न स्थापितं भवति सत्यं
महोदय षड् षट् चत्वारिंशत् अत्र षट् प्रथम किन्तु षड् षड्विंशतिः
डकारः
अस्ति किमर्थं
तत्र सन्धि भवति खलु तत्र सन्धि भवति किन्तु षट् तत्र षट् चत्वारिंशत् मध्ये तत्र कोऽपि कार्यं सन्धिकार्यं न भवति
न अत्र मृदु मृदुव्यञ्जनम् अस्ति खलु अग्रे विंशति इति मृदुव्यञ्जनम् अस्ति चेत् तत्र न मृदुव्यञ्जनं भवति तत्र षड् इति भवति इदानीं तत्र कर्कशव्यञ्जनम् षट् भवति आमां तदेव महोदय मृदुव्यञ्जनं चेत् मृदुव्यञ्जनम् अग्रे मृदुव्यञ्जनं चेत् मृदु एव भवति कर्कशव्यञ्जनं चेत् कर्कशः भवति अतः एव इफ् यु आर् स्ट्राङ्ग् दिस् आल्सो बिकम् स्ट्राङ्ग् इफ् यु आर् वीक् हि विल् आल्सो बिकम् वीक् दाट् युट् मनसि तादृश
सत्यं सत्यं महोदय सत्यं धन्यवादः महोदय लक्ष्मी भगिनी समाधानं वा
धन्यवादः
अस्तु समाधानं अस्तु अस्तु तर्हि अग्रे गच्छामः इदानीं तत्र किं त्रिसप्ततितमे पुटे तत्र तृतीय अभ्यासः अस्ति तं कुर्मः द्वितीय अभ्यासं गतवर्गे कृतवन्तः इति मन्ये इदानीं तृतीय अभ्यासः यः अस्ति तं कुर्मः तत्र गीताञ्जलि भगिनी आरम्भं करोति वा
आं महोदय तृतीय महोदय इत्युक्ते वर्षे
तत्र अधोभागे यः अभ्यासः अस्ति तदेव तत्र वर्षे प्रतिमासम् अपि
वर्षे प्रतिमासम् अपि कानिचन विशेषदिनानि भवन्ति अत्र तादृशानि कानिचन दिनानि निर्दिष्टानि सन्ति तानि कदा भवन्ति इति यथोदाहरणं वाक्यरूपेण लिखत अस्तु अस्तु जनवरी मासः 12th विवेकानन्दजयन्ती अस्तु द्वादश
उदाहरणं दत्तमस्ति भगिनि तत्र तत् पठतु
जनवरी मासस्य द्वादशे दिनाङ्के विवेकानन्दजयन्ती भवति
अत्र अतः तत्र का विभक्ति अपेक्षिता इदानीम् अस्मिन् अभ्यासे
मासे इत्युक्ते कस्य मास कस्य मास
कस्मिन् कस्मिन् मासे तत्र कस्य मासस्य किन्तु तत्र या संख्या दत्तमस्ति तस्याः संख्यायाः विभक्ति विभक्तिरूपम् अपेक्षितं तत्र
मासस्य कस्मिन् मासस्य
कस्मिन् दिनाङ्के इति खलु
न कस्मिन् इत्युक्ते जनवरि मासस्य इति तु षष्टिः
अस्ति तत्र षष्टि समीचीनं भगिनि तत्र मासस्य षष्टि तदनन्तरं
इत्युक्ते तदनन्तरं द्वादशे दिनाङ्के तु सप्तमी
इति एव अस्तु समीचीनं भगिनि प्रथमतया षष्टि तदनन्तरं सप्तमी
कस्मिन् दिनाङ्के कस्य मासस्य
समीचीनं भगिनि अस्तु इदानीं द्वितीयं करोतु
अस्तु द्वितीया जनवरी मासस्य
षड्विंशतिः
षड्विंशतितमे दिनाङ्के गणतन्त्रदिनं भवति
समीचीनं भगिनि समीचीनम् अस्तु अग्रे रघुपति महोदय
आं महोदय मार्च् मासस्य प्रथमे दिनाङ्के विश्ववनितादिनम् अस्तु विश्ववनितादिनं भवति
विश्ववनितादिनं भवति समीचीनं महोदय
प्रथमे दिनाङ्के
विश्ववनितादिनं
वनिता वनिता इत्युक्ते विमेन्
विमेन्स् डे
वुमन्
अस्तु अग्रे सूर्यकुमारी भगिनी
महोदय एप्रिल् मासस्य चत्वारिंशत्
नास्ति एतत्
चतुर्विंश क्षम्यतां महोदय चतुर्दशे दिनाङ्के अम्बेड्कर जयन्ती
भवति. समीचीनं भगिनि. लक्ष्मी भगिनी अग्रे.
मे मासस्य प्रथमे दिनाङ्के विश्वकार्मिकदिनं भवति.
अस्तु भगिनि, विश्वकार्मिकदिनं भवति. मयि इति लिखितमस्ति. सत्यं भगिनि.
हिन्दीभाषायां मयि मयि इति खलु मयि.
आं महोदय, हिन्दीभाषायां मयि एव.
मयि एव. अस्तु भगिनि, अतः मयि इति स्वीकृतमस्ति. अस्तु, विश्वकार्मिक
संस्कृते अस्ति इति स्वीकृतं प्रायः हिन्दीभाषायां. पूर्वमासीत् खलु एतत्? पूर्वमासीत् खलु संस्कृतभाषा, अतः प्रायः.
सत्यं महोदय.
अस्तु
अस्तु, अग्रे रघुपति महोदय, भवानेव.
अस्तु, जुलै मासस्य पञ्चमः इति खलु, पञ्चमे दिनाङ्के विश्वपर्यावरणदिनं भवति.
विश्वपर्यावरणदिनं भवति. समीचीनं महोदय. अस्तु, गीताञ्जलि भगिनी अग्रे.
आं महोदय, सप्टम्बर मासस्य पञ्चमे दिनाङ्के अध्यापकदिनं भवति.
अस्तु, समीचीनं. सूर्यकुमारी भगिनी अग्रे.
नवम्बर् मासस्य
पुनः क्षम्यतां भगिनि, यदि चिन्तितवान् तत्र अन्या सङ्ख्या भवेत्, किन्तु
दिनाङ्के बालदिनं भवति.
बालदिनं भवति. समीचीनम्. अस्तु, अस्तु, समीचीनम्. अस्तु, अग्रे गच्छामः. तर्हि तत्र लक्ष्मी भगिनी अग्रिमे पुटे अग्रिमाभ्यासं आरम्भं करोति वा?
अतः प्रधानमन्त्रिणः प्रवासयोजना दत्ता अस्ति. एतस्याः आधारेण सः कस्मिन् दिनाङ्के कुत्र भविष्यति इति लिखत. प्रथमदिनाङ्के देहलीतः प्रस्थानं
करोति. उदाहरणमस्ति, उदाहरणद्वयमस्ति भगिनि, तद् द्वयमपि पठतु.
प्रधानमन्त्री प्रथमे दिनाङ्के देहलीतः प्रस्थानं करोति. सः द्वितीयदिनाङ्के लक्नौ नगरे भविष्यति. एवमेव.
इदानीं तत्र
प्रधानमन्त्री द्वितीये दिनाङ्के लक्नौतः पट्नानगरं प्रस्थानं करोति.
अथवा लक्नौ नगरतः प्रस्थानं करोति
दिनाङ्के लक्नौ नगरतः प्रस्थानं करोति. सः चतुर्थे दिनाङ्के पट्नानगरे भविष्यति.
पट्नानगरे भविष्यति. समीचीनं भगिनि. तत्र वयं न जानीमः सः चतुर्थे दिने एव सः प्रस्थानं करोति वा इति. किमपि भवतु, तत्र तृतीये दिने वा चतुर्थे दिने वा, चिन्ता मास्तु. अस्तु, अग्रे गीताञ्जलि भगिनि.
आं महोदय, प्रधानमन्त्री चतुर्थे दिनाङ्के पट्नानगरतः प्रस्थानं करोति. सः सप्तमे दिनाङ्के
गुवाहाटी
गुवाहाटी नगरे भविष्यति.
हा गुवाहाटीनगरे भविष्यति. समीचीनं भगिनि. हा अस्तु, रघुपतिमहोदय अग्रे.
आं महोदय, प्रधानमन्त्री सप्तमे दिनाङ्के गुवाहाटीनगरात् अथवा नगरतः प्रस्थानं कृत्वा नवमे दिनाङ्के कोल्कत्ता नगरं प्राप्स्यति अथवा नगरे भविष्यति.
नगरे भविष्यति. समीचीनं महोदय. अस्तु, अन्यदपि वाक्यं करोतु महोदय तत्र.
आं महोदय, प्रधानमन्त्री दशमे दिनाङ्के कोल्कत्ता नगरतः प्रस्थानं करोति. दशमे दिनाङ्के भुवनेश्वरं प्राप्स्यति. भुवनेश्वरे भविष्यति.
समीचीनं महोदय. अस्तु, लक्ष्मी भगिनी, सूर्यकुमारी भगिनी.
प्रधानमन्त्री द्वादशदिनाङ्के भाग्यनगरं भविष्यति. अपि त्रयोदशदिनाङ्के प्रस्थानं
भाग्यनगरतः प्रस्थानं
करोति
अथवा प्रस्थानं
कृत्वा द्वादशदिनाङ्के भाग्यनगरं भविष्यति.
न, भाग्यनगरम् एव तत्र भवती उक्तवती. तत्र भाग्यनगरतः प्रस्थानं कृत्वा
चतुर्दशदिनाङ्के चेन्नैनगरं भविष्यति.
चेन्नैनगरं भविष्यति. समीचीनं.
नगरे भविष्यति. नगरं
चेन्नैनगरे प्राप्स्यति अथवा चेन्नैनगरे भविष्यति. नगरे, सत्यं.
नगरं प्राप्स्यति इति समीचीनं न?
सत्यं, नगरं प्राप्स्यति.
किमर्थं
भू धातु तु अकर्मक अस्ति.
प्रविशिष्यति
एव
प्राप्स्यति इति
ग्रामं प्राप्नोति इति एव
तत्र प्राप्स्यति इति सुलभमस्ति. प्राप्स्यति इति स्वीकुर्मः. तत्र भाग्यनगरम् इति जानाति वा? भाग्यनगरम् इति इत्युक्ते किं नगरं?
बरोडा.
हैदराबाद् इति चिन्तयामि खलु. भाग्यनगरम्. अस्तु, लक्ष्मी भगिनि.
प्रधानमन्त्री चतुर्दशदिनाङ्के चेन्नैनगरात् प्रस्थानं कृत्वा सप्तदशदिनाङ्के तिरुवनन्तपुरे भविष्यति. प्रधानमन्त्री नवदशे दिनाङ्के
नवदशे दिनाङ्के
बेङ्गलूरुनगरात् प्रस्थानं कृत्वा विंशतितमे दिनाङ्के मुम्बैनगरे भविष्यति.
अस्तु अस्तु, तर्हि तत्र तावत्पर्यन्तं पर्याप्तम् इति मन्ये खलु. अग्रे गच्छामः तर्हि.
अहमदाबाद्
इति वा महोदय?
कर्णावती एक्स्प्रेस् इति अस्ति खलु महोदय.
धन्यवादः.
हैदराबाद् इति सर्वेषां पुरातन नाम अस्ति.
अहमदाबाद्. अस्तु,
अहमदाबाद्
गुजरात् मध्ये. कर्णावती. अस्तु, चण्डीगढ् अपि तत्र श्रीनगरम्. अस्तु,
कर्णतः आयाति नाम कर्ण
कर्णवती
इत्युक्ते महाभारते कर्ण अस्ति तत्र एव कर्णवती
न जनमि
न न न भिन्नः अस्ति तत्र प्रायः तत्र कर्णवती नदी अस्ति वा न जानामि
रूपं कर्ण इव अस्ति
किं भगिनि
गुजरात् रूपं
प्रदेशस्य रूपं कर्ण इव अस्ति वा ओ अस्तु 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 धन्यवादः भगिनि न ज्ञातवान् अस्तु तत् सत्यं वा अतः एव कर्णावती इति अस्ति वा किन्तु भगिनि तत्र गुजरात् प्रदेशस्य रूपं तु इदानीं तत्र आधुनिकरूपम् अस्ति खलु किन्तु एतद् नाम तु प्राचीननाम अस्ति खलु
तत्रापि अस्ति तत्र नामपरिवर्तनस्य विषयः अस्ति इदानीं चिन्तनमस्ति तत्र अहमदाबाद् नगरस्य कर्णावती इति करणीयम् इति
किन्तु महोदय तत्र केवलम् अहमदाबाद् नगरस्य विषयः अस्ति न तु गुजरात् प्रदेशस्य विषयः खलु तत्र तस्य
न न न अहमदाबाद् न जानामि महोदय कर्णावती नदी अस्ति वा प्रायः कर्णावती इति शरावती इति प्रायः अहं चिन्तितवान् नदी नद्याः विषये पुरातननदी भवेत् अतः
न जानामि
यद्यपि यद्यपि गुजरात् प्रदेशः तु नूतन अस्ति किन्तु आकार तु तदेव अस्ति
गजस्य कर्णः एव स्थलमस्ति गुजरात्
गजस्य कर्णः
वा तदस्ति कर्णः कर्ण तादृश अस्ति अस्तु गुजरात् गुजरातस्य इदानीन्तनरूपं तादृश अस्ति
इदानीन्तनरूपं किन्तु एतत् नाम तु प्राचीननाम अस्ति अस्तु तर्हि अग्रे गच्छामः तर्हि पञ्चम अभ्यासः तत्र रघुपतिमहोदय भवान् एव आरम्भं करोतु महोदय
एकवारं महोदय तत्र अस्तु महाभारतयुद्धे कदा कः केन हतः इति अत्र सूचितमस्ति यतोदाहरणं वाक्यानि रचयत श्वेतः भीष्मः अस्तु प्रथमे दिने श्वेतः भीष्मेण हतः यत् अस्तु द्वितीये दिने शक्रदेवः भीमेन हतः द्वितीये दिने शक्रदेवः भीमेन हतः
अस्तु गीतञ्जलि भगिनी अग्रे
महोदय संख्या अपि अस्ति
किं भगिनि
क्षम्यतां
सः उक्तवान् द्वितीये दिने इति
चतुर्थे दिने गजसेना ओ सोरि गजसेना भीमेन हतः
हता इति प्रायशः तत्र किन्तु तत्र महिला इति
गजसेना
इति का अथवा तत्र स्त्रीलिङ्ग
सेना इति
किन्तु तत्र समासः कृत्वा तत्र
सेना प्रायः न जानामि गजसेना
स्त्रीलिङ्गं न भवितुम् अर्हति महोदय भीष्मः स्त्रीणां युद्धं न
भीमः एषः भीमः अपि न तत्र
सैन्यस्य नाम अस्ति खलु स्त्री नास्ति गजसैन्यमस्ति सैन्यस्य सेना इति अस्ति गजसेना प्रायः न जानामि गजसैन्यं
तत्र गजसेना तत्र प्रायशः पुल्लिङ्गपदं पुल्लिङ्गरूपम् इति एव स्वीकुर्मः किन्तु एतत् नाम तु प्रसिद्धनाम नास्ति खलु तत्र गजसेना इति पूर्वं न श्रुतं मया न केवलं तत्र
अहं चित्रवान् गजानां सेना अस्ति इति
अस्तु तादृशम् अस्तु अस्तु तत् तत् स्वीकुर्मः अस्तु श्रीलिङ्ग सत्यम् अस्तु तत् स्वीकुर्मः सेना गजानां
पुत्रः घडोल्गजः पतितं सः पतितवान् कौरवाणाम् उपरि पतितवान्
किन्तु एषः तत्र भीमः एव हतवान् इति अत्र दत्तमस्ति न तु भीमस्य पुत्रः
महोदय गजसेनविभक्ति
तत्र तस्य प्रयोगः किमर्थं
सप्तमी
सप्तमी
कर्मणि पदे कर्मपदमस्ति कर्मणि प्रयोगे प्रथमविभक्तः भवति गजसेन हतः हता
भीमेन हता इति तावदेव खलु चतुर्थे दिने
कदा इति सप्तमी भवति तत्र
चतुर्थे दिने गजसेन भीमेन हता
गजसेन स्त्रीलिङ्गपदम् अस्ति चतुर्थ्यां दिने
किमर्थं चतुर्थ्यां दिने दिनं तु तत्र दिनम् इति पदस्य एव विभक्तिरूपं सर्वं भवति खलु
दिने नास्ति
विशेषणं नास्ति खलु
तत्र गजसेन इति पदस्य विशेषणं नास्ति दिनम् इति एव तत्र चतुर्थे दिने इति एव भवति खलु भगिनि खलु इदानीं समीचीनं वा भगिनि
चतुर्थ्यां तिथ्याम् इति भवितुमर्हति चतुर्थ्यां तिथ्यां
गजसेन
हता दिनमस्ति अत्र चतुर्थे दिने इति भवति तिथि भवति चेत् भवति
तिथि आसीत् चेत् भिन्नं किन्तु अस्तु इदानीं गीताञ्जलि भगिनि अग्रे चतुर्थः एव करोतु भगिनि तत्र
पञ्चमे दिने सात्यकेः दशपुत्राः इत्युक्ते एकपुत्र दशमं
न न दशपुत्राः
दशमं न दशपुत्राः
भूरिश्रवेण हा तत्र भूरिश्रवाः इति अस्ति तत्र भूरिश्रवसा तत्र अप्सरस् इति दुर्वास इति दुर्वास सकारान्तपदं भगिनि तत्र
सकारान्त इत्युक्ते भूरिश्रवसा
हा बहु समीचीनं भगिनि पुनरेकवारं
दुर्वासः अस्ति चेत् दुर्वासेन इति भवति वा
न तत्र दुर्वासः इति पदमस्ति चेत् भगिनि तत्र प्रायः तत्र सस् इति सकारान्तपदमेव तत्र दुर्वाससा यतोहि तत्र दुर्वासस् इति प्रातिपदिकं भगिनि
महोदय एकः प्रश्नः तत्र दशपुत्राः तत्तु एकमेव पदं वा
दशपुत्राः अथवा भिन्नपदमपि तत्र दश तु नित्य एकवचने एव भवति भगिनि
इत्युक्ते पृथक् पृथक् लिखनी
लेखितुं शक्नुमः दशपुत्राः अथवा समस्तपदमपि तत्र अर्थभेदः नास्ति रूपभेदः अपि नास्ति तत्र
महोदय तत्र पञ्च आरभ्य नवदशपर्यन्तं नित्य बहुवचनं खलु
सत्यं एकवचनम् इति उक्तवान् क्षम्यतां सत्यं महोदय नित्य बहुवचनं
मम
सत्यं 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 विंशति आरभ्य तत्र
नित्य
एकवचनं
त्रिलिङ्गे अस्ति
त्रिलिङ्गे अस्ति सत्यं
इत्युक्ते पञ्चमे दिने सात्यकेः दशपुत्राः
पञ्चमे दिने इति भवेत्
पञ्चमे दिने
द्वारं पञ्चमे इति उक्तवती
सत्यं पञ्चमे दिने सात्यकेः दशपुत्राः भूरिश्रवसा
हताः समीचीनं भगिनि हताः समीचीनम् अस्तु अग्रे लक्ष्मी भगिनि
सप्तमे दिनाङ्के
अथवा दिने दिने इदानीं तत्र दिनाङ्के नास्ति मासस्य विषयः नास्ति
सप्तमे दिने
दिने युद्धस्य कस्मिन् दिने इति अतः सप्तमे दिने
दिने शङ्खः द्रोणेन हतः
शङ्खः द्रोणेन हतः समीचीनं भगिनि अस्तु अग्रे सूर्यकुमारी भगिनि
अष्टिदिने
किम्
अष्टमे दिने
तत्र अष्टमे दिने
इरावानेन
न न कः हतः कः
अलं
कः
अलंकोशः
कः हन्ति अपि कस्य हतः कः हतः अपि कः हन्ति उदाहरणं पश्यतु भगिनि तत्र प्रथमवाक्यस्य उदाहरणं दृष्ट्वा वदतु भगिनि
इरावान् अलम्बुषेण हतः
हा अलम्बुषेण हतः तत्र णत्वं भवति खलु अष्टमे दिने इरावान्
अलम्बुषेण हतः
हा अलम्बुषेण हतः समीचीनं भगिनि हा अस्तु अग्रे
महोदय अलम्बुषकः
न जानामि भगिनि प्रायशः
राक्षसवर्गे इति अस्ति दत्तमस्ति अलम्बुषा इति अलम्बुषा इति अस्ति राक्षस इत्युक्ते दुर्योधन प्रायः दुर्योधनपक्षीयः
न जानामि
अलम्बुषा इति दत्तमस्ति अलम्बुषा इति राक्षसः न जानामि अलम्बुषा इति
अस्तु रघुपति महोदय भवानेव
दशमे दिनाङ्के
दिने दिने
अस्तु दशमे सोरि दशमे दिने भीष्मः अर्जुनेन पातितः सोरि एकवारं भीष्मः अर्जुनेन पातितः आमां सत्यं पातितः
अत्र अस्ति दत्तमस्ति
आमां पातितः पतितः न भवति
हा यतोहि सः अर्जुनेन
अर्जुनः भीष्मं पातयति दशमे दिने
समीचीनं अस्तु अग्रे गीताञ्जलि भगिनि
आं महोदय त्रयोदशे दिने अभिमन्युः दौषासनिः वा
दौषासनिः
दुःशासनस्य अपत्यं पुमान् वा
सत्यं
किन्तु जनः तु एकमेव न
सत्यं
अस्तु निः इत्युक्ते हरिः हरि न हरिणा
तत्र सनिः इति तत्र दौषासनः इति किमर्थं नास्ति
हरिणा
ओ न न दाशरथि इति यथा दाशरथि इति अस्ति खलु भगिनि दशरथस्य अपत्यः दाशरथि
दुःशासन
न तादृशं यथा दाशरथि इति भवति अत्रापि तत्र इकार अन्ते भवति
इकार इत्युक्ते हरिवत् अस्ति
हरिवत् सत्यं सत्यं
त्रयोदशे दिनाङ्के अभिमन्युः
दिने नो चेत् तत्र किं महाभारतं प्रतिमासं भवति
क्षम्यतां महोदय अस्तु त्रयोदशे दिने अभिमन्युः दौषासनिना
हतः
क्षम्यतां हतः
दौषासनिना हतः इति चिन्तयामि
दौशासनिना
तत्र कविना हरिणा इति तत्र दौशासनिना हतः सनिना हतः अस्तु अग्रे लक्ष्मी भगिनी
महोदय अत्र अलम्बुष इति अत्र दत्तमस्ति कुरुक्षेत्रे इति कौरवाणां सहाय स्वनामाख्यात राक्षसः आसीत् इति अलम्बुष इति राक्षस एव
इरावान् कः
इरावान् न जानामि इरावान्
नूतनानि नामानि सन्ति अत्र
आम्
अतः तत्र पुनः एकवारं पठित्वा तत्र अभिज्ञानं भवति चेत् तत्र एषः कः इति एव भवति. अस्तु, लक्ष्मी भगिनी अग्रे.
चतुर्दशे दिने जयद्रथः अर्जुनेन हतः.
अर्जुनेन हतः.
अर्जुनेन इति अत्र जकार अस्ति.
व्यवधानमस्ति. सत्यम्, अर्जुनेन हतः. अस्तु अस्तु, समीचीनम्. अग्रे सूर्यकुमारी भगिनी.
चतुर्दशदिने भूरिस्रवः सात्यकेन
हतः. समीचीनम्. अस्तु, अग्रे रघुपतिमहोदय.
महोदय, तत्र इरावान् अर्जुनस्य पुत्रः अस्ति. उलूपि इति खलु,
उलूप्याः
पुत्रः अस्ति.
पुत्रः इरावान्. ओ, अस्तु अस्तु.
इरावान्
उलूपि अप्सरस महोदय. उलूपि पुत्र
न अप्सरस नास्ति. उलूपि तु तत्र किं
तस्य पत्नी अस्ति. उलूपि
पत्नी, किन्तु तत्र महिला एव. तत्र महिला राणी अस्ति. हा, राणी अथवा राजपुत्री इति. हा, राजपुत्री इति. हा, अप्सरा
तत्र नागा कि सा दाक्रको नागा किंग ऑफ नागा. कौरव्य इति नागा किंग आसीत् राजा. तस्याः तस्य पुत्री आसीत्.
पुत्री, हा, अतः तत्र नागराजस्य पुत्री.
आम्,
नागकन्या.
चतस्रः तस्य अर्जुनस्य चतस्रः पत्न्यः आसन्. तेषु एका आसीत् उलूपि. पश्यन्नस्मि.
धन्यवादः महोदय.
किञ्चित् यदा प्रसङ्गवशात् किञ्चित् कदापि न पठेम. भवान् न पठितवन्तः महाभारतं. किञ्चित्
अथवा यदि पठामः तत्र केवलं प्रसिद्धाः
जनाः,
तेषां नाम एव तत्र. यथा तत्र गान्धर्याः दशपुत्राः सन्ति, किन्तु तेषां नामानि न जानीमः खलु. तत्र तत्र लिखितमस्ति, किन्तु वयं न जानीमः.
बन्नञ्जय गोविन्दाचार्य एकः आसीत्, संस्कृत महान् पण्डितः. गतमासे एव तस्य निधनम् अभवत्. महान् प्रकाण्डपण्डित शङ्कराचार्य मध्वाचार्यस्य चित्रमासीत् खलु, तस्य सम्भाषणं तेन लिखितमासीत्. संस्कृत मूवि आसीत् खलु. तस्य स्मरणशक्ति अगाध आसीत्. सः शत कौरवाः, तेषां नाम सकृत् वदति स्म. तादृश अस्माकं
सत्यं सत्यं सत्यं.
सप्तात् पूर्वस्य पाठः अपि स्मरणे न भवति.
यथा शक्तिः भवति तावदेव. अस्तु, इदानीं तत्र कुत्र स्मः? तत्र
द्रोणः, दृष्टद्युम्नः एकादश. पञ्चदशे दिने पञ्चदशे दिने द्रोणः दृष्टद्युम्नेन हतः.
हा, दृष्टद्युम्नेन हतः. समीचीनं महोदय. अस्तु, गीताञ्जलि भगिनी अन्तिमम्.
सप्तदशे दिने कर्णः अर्जुनेन हतः. महोदय, तत्र अपि एक संशयः अस्ति. इत्युक्ते चतुर्दशे दिने किम् अभवत् इत्युक्ते धृतराष्ट्रः सर्वं इत्युक्ते सञ्जयेन भगवद्गीता रूपेण सर्वं पृष्टवान् इत्युक्ते दिव्यदृष्टि सञ्जयेनस्य सञ्जयस्य
दिव्यदृष्ट्या तत्र किं धृतराष्ट्रः महाभारतयुद्धे किं किम् अभवत् इति सः तत्र जानन् आसीत् जानाति स्म
इत्युक्ते धृतराष्ट्रः पृष्टवान् चतुर्दिशे दिने, किन्तु किमर्थं चतुर्दिशे दिने? द्रोणः यदा द्रोणः हतः तदा एव सः धृतराष्ट्र पृष्टवान् इत्युक्ते अत्र तु पञ्चदशे दिने द्रोणः हतः
इति दत्तमस्ति वा भगिनि? किन्तु तत्र महाभारते तत्र चतुर्दशे दिने एव तस्य हतः
हा इति एकवारम् उक्तवान् वर्गे. किमर्थं किमर्थम् इत्युक्ते विषयः किं कथं वर्गे आयाति इत्युक्ते किम् इत्युक्ते धर्मक्षेत्रे कुरुक्षेत्रे समवेता युद्योत्सवः मामका पाण्डवाश्चैव किम् अकुर्वत सञ्जय किम् अकुर्वत इति लङ् रूपमस्ति.
दशदिनपर्यन्तं सः न पृष्टवान्. यदा भीष्मः पतितवान्
त्रयोदशदिन पर्यन्तं न पृष्टवान्, किन्तु यत्र इत्युक्ते यदा
द्रोणस्य मरणम् अभवत्
द्रोणस्य किमपि अभवत् सः विचलितजातः इत्युक्ते पृष्टवान्.
अस्तु अस्तु,
अहं श्रुतवती दश दिन अनन्तरमेव सः प्रष्टुं
कर्तुम् आरब्धवान्. अस्तु, न जानामि. अस्तु, किन्तु तत्र
भीष्मः पातितवान् अर्जुनेन पातितवान् तदनन्तरमेव सः सञ्जयं पृच्छति.
अस्तु 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 अस्तु,
एकादशदिनं
तावत्पर्यन्तं तस्य दृढनिश्चयः आसीत्
अस्तु कौरवः एव
विजयं प्राप्नोति इति दृढनिश्चयम् आसीत्.
सत्यं
दृढनिश्चयः आसीत्, अतः सः न पृष्टवान्. दिव्यदृष्टि अपि न आवश्यकता नास्ति. अतः एव गीता आरम्भे किम् अकुर्वत पूर्वं किम् अकुर्वत इति लङ्लकारे सः पृष्टवान्.
सत्यं, किन्तु तत्तु चतुर्दशे दिने न भगिनि? अरविन्द महोदय,
अहं श्रुतवती दशदिन यदा भीष्मः
अस्तु अस्तु, इदानीं विषयान्तरम् अभवत्, मास्तु अग्रे गच्छामः. अस्तु, किन्तु तत्र यत् या संख्या दत्ता अस्ति
अत्रैव पठेम अन्यथा
नो चेत् तत्र किं पुस्तकस्य नूतन एडिशन् यदा भवति तदा. अस्तु, तर्हि तत्र अहं चिन्तयामि अग्रिम अभ्यासः अपि तस्मिन् किमपि नास्ति इति मन्ये. तत्र केवलं प्रथमाद्वितीयं तत्र, अतः तद् तम् अभ्यासं त्यजामः, श्लोकान् किञ्चित् परिशीलयामः इति. अतः तत्र अग्रिमे पुटे तत्र इदानीं किम् अस्ति तत्र षट्सप्ततितमे पुटे तत्र गणेशस्तोत्रम् अस्ति, तत्र पश्यामः तत्र पूर्णप्रत्ययान्तरूपाणि अपि सन्ति, अतः तं पश्यामः. तत्र सूर्यकुमारी भगिनी भवती पठति वा तत्र?
हा महोदय.
एतत् गणेशस्तोत्रम्
एतत् गणेशस्तोत्रे गणेशस्तोत्रम् उच्चैः पठत अत्र प्रयुक्तानि पूरणप्रत्ययान्तरूपाणि च जानीत पूरणप्रत्ययानि सन्ति गणेशसूत्रे गणेशस्तोत्रं
गणेशस्तोत्रे ये यानि पूर्णप्रत्ययान्तरूपाणि सन्ति तानि
जानीत
तानि जानीत समीचीनं भगिनि हा अस्तु एकवारं पठतु भगिनि तत्र स्तोत्रं
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं तृतीयं कृष्णपिङ्गाक्षं गजवस्त्रं चतुर्थकं गजवस्त्रं
गजवक्त्रं वक्त्रं वक्त्रं इत्युक्ते आननम् आननम्
वक्त्रं चतुर्थकं
वक्त्रं
वक्त्रं वक्त्रं
वक्त्रं
वक्त्रं गजवक्त्रं चतुर्थकं लम्बोदरं पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजं च धूम्रवर्णं सदाष्टकम् नवमं बालचन्द्रं च दशमं तु विनाशे
विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननं द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः न च विघ्नभयं तस्य सर्वसिद्ध
चिन्ता मास्तु भगिनि समीचीनम् अभ्यासार्थमेव अतः तत्र नामानि कानि प्रथमं नाम वक्रतुण्डं
वक्रतुण्डं द्वितीयनामम् एकदन्तं
द्वितीयं नामं द्वितीयं नाम तत्र नामम् इति नास्ति नाम
तृतीयं नाम एकदन्तं तृतीयनाम कृष्णपिङ्गाक्षं
कृष्णपिङ्गाक्षं
चतुर्थ नाम चतुर्थं नाम
गजवक्त्रं गजवक्त्रं गजवक्त्रं
गजवक्त्रं
तावदेव समीचीनं भगिनि अस्तु अग्रे गीता
वक्त्रम् इति वदति वक्ति अनेन इति वक्त्रम् इति अत्र गात्रम् इति खलु गच्छति अनेन इति गात्रम् इति शरीरम् इति वचिधातुतः वचिधातुः वक्त्रम् अतः गात्रं तदपि तथैव अस्ति अत्र गात्रम् इति अतः शरीरम् इति अत्र गच्छति अनेन इति
तत्र
इति कश्चन उणादिप्रत्ययः अस्ति तत् तेन बहु बहवः शब्दाः
अतः तत्र गजे तत्र गजमुखेन वदति इति वक्त्रम् इति
न गजवक्त्रं वक्त्रम् इत्युक्ते मुखम् इति अस्ति
वदति
गजस्य वक्त्रं गजवक्त्रम् वक्त्रम् इत्युक्ते मुख इति अस्ति गजमुखः वक्त्रं वक्त्रमित्यस्य निष्पत्तिः भवति वच् धातोः त्र इति प्रत्यय उणादिप्रत्ययेन वक्त्रम् इति भवति इति
अस्तु अस्तु महोदय अस्तु
गजस्य मुखमस्ति गजवक्त्रं
सत्यं हा गजाननं गजवक्त्रं समानार्थकम्
आम्
अस्तु महोदय समीचीनं हा अस्तु गीताञ्जलि भगिनी अग्रे
आं महोदय लम्बोदरं पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकं
तत्र पञ्चमनाम
पञ्चमं नाम लम्बोदरं लम्बोदरं
तत्र पञ्चमं नाम केवलं नाम
हा हा पञ्चमं नाम हा उत्तमं धन्यवादः महोदय लम्बोदर इत्युक्ते यस्य उदरः विशालः न
सत्यं
लम्बोदरं पञ्चमं च षष्ठं षष्ठं नाम विकटं सुन्दरं वा महान् वा
विकटं तत्र न जानामि भगिनि विकटम् इत्युक्ते इत्युक्ते तत्र
महान् आत्मा महान् वा
भिन्नरूपं
तत्र विकट इत्युक्ते प्रायश
विकटकविः इति अहं श्रुतवती विकटकविः
इत्युक्ते
न सामान्यरूपम्
असामान्यः प्रायश तत्र
अन्यूजुवल्
इति किन्तु तत्र किम् अस्ति तत्र विकट इति तत्र अन्यूजुवलि हेण्ड्सम् इति अति ग्रेट् इति अस्ति भगिनि ग्रेट् ग्रेट् इति स्वीकुर्मः
सप्तमं विघ्नराजं विघ्नराजं तु वयं सर्वे जानीमः एव यः सर्वस्य विघ्नं
सर्वाणि विघ्नानि
किं नष्टं करोति अस्तु तदनन्तरं धूम्रवर्णं तत्तु वर्ण इत्युक्ते स्मोक् कलर्ड् न
सत्यं भगिनि
धूम्रवर्णं तथाष्टकम् अष्टकम् अष्टकं नाम
तत्र अष्टम नाम अष्टमं नाम
अत्र अष्टकम् इत्युक्ते तदनन्तरं
तत्र तादृशप्रयोगं तत्र चतुर्थकम् इति दत्तमस्ति अष्टकं तत्र चतुर्थक नाम तत्र किन्तु वयम् अष्टम इति तादृशरूपं तस्य प्रयोगः कुर्मः खलु अतः
किन्तु अष्टकमम् अपि
न अष्टकमं नास्ति भगिनि तत्र अष्टकम् इति तत्र भवती तु जानाति खलु तत्र यत्र श्लोकेषु किमपि तत्र किं भगिनि
नूल् प्रत्यय
नूल् प्रत्यय नास्ति तत्र कर्ता अस्ति भवति नायक इति तद् एतत् भिन्नम् अस्ति अष्टक पञ्चक इति तद्
तत्र कति भागाः सन्ति इति मन्ये तत्र
आमामां
तत्र तत्र श्लोकेषु भवति खलु भगिनि तत्र कृष्णाष्टकम् अथवा लक्ष्मी अष्टकम् इति तत्र
अष्टकम् इत्युक्ते एट् पार्ट्
तादृश
अष्टक इत्युक्ते एट् पार्ट्
इति किन्तु अत्र प्रायः किमर्थम् अत्र किमर्थम् एतद् रूपम् अत्र स्वीकृतम् इति तत्र किञ्चित् द्रष्टव्यम् अस्ति किन्तु अष्टमं नाम इति प्रयोगं कुर्मः
ओ यदि अष्टक अस्ति चेत् अष्टभाग किन्तु अत्र तु अष्टकम् इत्युक्ते एट्
तत्र तत् किमर्थम् इति अग्रिमे वर्गे पश्यामः भगिनि किन्तु अष्टम नाम किम् अस्ति
अष्टम नाम तु
अष्टमं क्षम्यताम् अष्टमं नाम धूम्रवर्णः धूम्रवर्णः इति तत्र गणेशस्य अष्टमं नाम सत्यं भगिनि अष्टमं नाम गणेशस्य अस्ति धूम्रवर्णः इति अस्तु तत्रापि अग्रे तत्र केवलं श्लोकद्वयम् अस्ति तत्र समापयामः तत्र रघुपतिमहोदय एकं करोतु लक्ष्मीभगिनी एकं करोतु समापयामः अस्तु रघुपतिमहोदय अग्रे
नवमं बालचन्द्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननं नवमं बालचन्द्रम् इति अस्ति नवमं बालचन्द्रं चन्द्रैव बालचन्द्र इति भा इति बालचन्द्र दशमं तु विनायकं विशिष्टनायकः एकादशं गणपतिं गणानां नायकः द्वादशं तु गजाननं द्वादशं तु गजाननं बालचन्द्र इति भाति इति यत्र भां भां लाति इति बाल प्रकाशं लाति इति
बालचन्द्रः
भाति इति खलु भाति मे भारत भा इति अस्ति बालम् इति बालः इति आमां चन्द्रस्य आमां चन्द्रैव चन्द्रैव प्रकाशमाना अस्ति चन्द्रैव प्रकाशं लाति सः बालचन्द्रः इति
बालचन्द्रः
बाल न तु बालचन्द्रः
सत्यं महाप्राणः
महाप्राणः अस्ति भा इति भाति मे भारतम् इति अस्ति खलु लाति आनयति इति
आनयति
आनयति ददाति इति लाति ला
नयति अपि
ला दातु टु ओब्टेन् इति भवति लाति
तत्र हिन्दीभाषे तदपि अस्ति खलु भगिनि भवतो लाकरावो इति
आमां ला आदाने आदाने इति अत्र टु एक्सेप्ट् इति टु ओब्टेन् इति अस्ति ओब्टेन् इति लाति लातः लान्ति इति अत्र द्वितीयगणे अस्ति अदादिगणे अस्ति लाति लातः लान्ति लाचि लातः लातः लामि लावः लामः
इदानीं तत्र बालचन्द्रं चन्द्रः विनायकः इदानीम् एकादश तु गणपतिः
एकादशं गजाननं गजस्य आननं इव गज गजस्य आनन इव यस्य सः गजाननं
गजाननं गजाननं समीचीनं महोदय अस्तु धन्यवादः अस्तु लक्ष्मी भगिनी अन्तिमवाक्यद्वयं
द्वादशैतानि नामानि त्रिसन्ध्यं यप्पडे नरः न च विघ्नभयं तस्य सर्वसिद्धिकरं परं द्वादश नामानि सन्ति
एतानि
त्रिसन्ध्यं यः यः
पठेत् नरः
पठेत् नरः
तत्र तकारः नकारः पठेन् अनुनासिकसन्धि
पठेत् यः पठेत् नरः न च विघ्नभयं तस्य विघ्नभयं
नास्ति तस्य विघ्नभयं नास्ति
न भवति सर्वसिद्धिकरं परं
तत्र सर्वसिद्धिं करोति सर्व यद् यद् किमपि कार्यं भवतु तत्र सिद्धि प्राप्नोति कार्ये
सिद्धिकरं भवति सिद्धिकरं भवति एतत् पठनं अस्य पठनं सिद्धिकरं भवति
पठनेन तत्र यद्यपि यत् किमपि कार्यं भवतु कार्येषु
सिद्धिः
कार्ये सिद्धिं प्राप्नोति सः नरः
विघ्नभयं सिद्धिकरं
विघ्नभयं नास्ति विघ्नभयं नास्ति अपि सिद्धिकरं भवति
गणपत्यस्य सिद्धिः भवेत् वयं पठितवन्तः
द्वादशनामानि एतानि
एकादशं गणपतिं द्वादशं तु गजाननं द्वादश नामानि खलु द्वादश एतानि नामानि
द्वादशं नाम तु गजाननं तदनन्तरं
एतानि द्वादश नामानि
त्रिसन्ध्या सन्ध्याकाले पठेत् नरः अस्य नरस्य विघ्नभयं नास्ति त्रिसन्ध्यं तत्र
सन्ध्याकाले
तत्र सन्ध्याकाले इत्युक्ते तत्र प्रातःकाले मध्याह्ने
तृतीयं सन्ध्या प्रथमप्रातःकाले मध्याह्ने अनन्तरं सायङ्काले
सत्यं भगिनि अस्तु तर्हि अत्र स्थगयामः तत्र सूर्यकुमारी भगिनी भवती अन्ते तत्र प्रार्थनारूपेण वदति वा भगिनि
आम् महोदय सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कक्षिद्दुःखभवेत् ॐ शान्ति शान्ति शान्तिः
धन्यवादः भगिनी